इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः। अमेरिका यूक्रेनयोः राष्ट्राध्यक्षयोः वाशिंगटन नगरे उच्चस्तरीयोपवेशनं समजायत। अवसरेऽस्मिन् ट्रम्प जेलेन्स्की इत्यनयोर्मध्ये सञ्जातात् तीव्रोष्ण संवादात् अनन्तरं दुर्लभ खनिजेति द्रव्याणां शेयर मार्केटाख्येषु विपणिषु तीव्रतरा अपचितिः परिलक्ष्यते। यूक्रेनदेशस्य राष्ट्रपतिना जेलेन्स्की इत्यनेन उक्तं यत् तेन राष्ट्रपतिः डोनाल्ड ट्रम्पः प्रोक्तः यत् युद्धस्य समापनमुद्दिश्य कृते संवादे राष्ट्रपतिना व्लादिमीर पुतिनेन सह कथमपि सन्धिः न भवेदिति। उपवेशनमिदं यूक्रेनदेशस्य खनिजसम्पदायाः अमेरिकादेशेन सह वितरणाय सम्भावितसन्धेः प्राक् आसीत्। अद्य प्रधानमन्त्री नरेन्द्रमोदी ग्रामीणसमृद्ध्या सह कृषीति विषयमवलम्ब्य वेबिनाराख्यम् उत्तर आयव्यय संकल्पपत्रसम्मेलनम् आभासीयमाध्यमेन सम्बोधयिष्यति। सम्मेलनेऽस्मिन् सर्वेऽपि केन्द्रीयमन्त्रिणोऽपि सम्मिलिताः भविष्यन्ति, यत्र आयव्यय संकल्पनापत्रस्य कृषिणा सह ग्रामीणसमृद्धेः संकल्पनायाः व्याख्याया सह कथञ्च क्रियान्वयनं भवेदिति चर्चा चर्चिष्यते। प्रधानमन्त्री नरेन्द्रमोदी यूरोपीयायोगस्य अध्यक्षया उर्सुला वॉन डेर लेयेन इत्यनया साकं ह्यः नवदिल्ल्यां प्रतिनिधिमण्डलस्तरीयां वार्तां समाचरितवान्। वार्तावधौ उभौ पक्षौ व्यापार निवेश प्रौद्योगिकी नवाचार हरितोर्जा सम्पर्क सौविध्येषु अथ च जनानां मध्ये सम्बन्धेषु गहन सहभागितायाः कृते स्वप्रतिबद्धतां प्रकटितवन्तौ। वार्तानन्तरम् एकस्मिन् संयुक्त वक्तव्ये प्रधानमन्त्रिणा नरेन्द्रमोदिना भणितं यत् भारत यूरोपीयायोगयोः मध्ये दशकद्वयं प्राचीनं कार्यनीतिक सहभागित्वं स्वाभाविकं जैविकञ्च वर्तते इति। असौ अग्रे अवोचत् यत् एतस्य मूले च विश्वासलोकतान्त्रिकमूल्ययोः पारस्परिकविश्वासाय प्रगतये समृद्धये च संयोजितप्रतिबद्धता निहितास्ति। प्रधानमन्त्रिण अग्रे निगदितं यत् भारत यूरोपीयसङ्घयोः मध्ये सहभागितां वर्धयितुं गतिञ्च प्रदातुं अनेके निर्णयाः गृहीताः। स्वकीये सम्बोधने प्रधानमन्त्री प्रत्यपादयत् यत् सम्पर्कसौविध्यं समेधेतुं भारतमध्यपूर्वयूरोपार्थिकवीथ्याम् अग्रे संवर्धनाय प्रबलपदक्षेपाः उत्थापयिष्यन्ते। प्रधानमन्त्रिणा सबलं प्रख्यापितं यत् आन्तर्जालिकापराधसागरीयसुरक्षा आतंकवादप्रतिरोधेषु सहयोगः अग्रे वर्धमानो भविष्यति। प्रधानमन्त्री पुनः हिन्दप्रशान्तमहासागरोपक्रमे सम्मिलितस्य यूरोपीयसङ्घस्य निर्णयस्य स्वागतञ्च व्याहृतवान्। बांग्लादेशीनां रोहिंग्यानाञ्च अवैधतया भारते प्रवेशशमनार्थं तेषां सहयोगितन्त्रं विरुध्य च कठोराचरणाय गृहमन्त्रिणा अमितशाहेन एकस्मिन्नुपवेशने दिङ्निर्देशाः प्रख्यापिताः। तेनोक्तं यत् प्रकरणमिदं राष्ट्ररक्षया सम्बद्धमस्तीति। गृहमन्त्रिणः अध्यक्षतायां सम्पन्नेऽस्मिन् उपवेशने दिल्ल्याः मुख्यमन्त्री रेखागुप्ता, दिल्ल्याः गृहमन्त्री आशीषसूदः, आरक्षिवर्गस्य आयुक्तः, अन्ये च वरिष्ठाधिकारिणः सम्मिलिताः अभवन्। भारतदेशेन पूर्ववदेव सकलगृहगतोत्पादनक्षेत्रे तीव्रतया वरिवर्धमानायाः अर्थव्यवस्थायाः सम्मानम् अस्मिन् त्रैमासिककालांशेऽपि सुरक्षितमस्ति, यत्र जीडीपी इत्यस्मिन् अस्मिन् कालांशेऽपि 0.2% प्रतिशतात्मिका वृद्धिः समुट्टङ्किताऽस्ति। तत्रैव गतत्रैमासिककालांशे वृद्धिरिति प्रतिशताङ्केषु 0.6% एव आसीत्। अन्ते क्रीडावार्तायाम्। क्रिकेट क्रीडायाः आईसीसी चैम्पियंस इत्याख्यायां क्रीडाश्रृंखलायां ऑस्ट्रेलियादेशस्य अनन्तिमक्रीडायां प्रवेशः प्रायशः सुरक्षितोऽस्ति। ह्यः क्रीडितायां वर्षया प्रक्षालितायां क्रीडायां अफगानिस्तानेन सह ऑस्ट्रेलियादेशेन एकैकम् अंकं वितरितम् इति वार्ताः।